अच्युतं केशवं कृष्णदामोदरम् अच्युतं केशवं कृष्णदामोदरं रामनारायणं जानकीवल्लभम्
अच्युतं केशवं कृष्णदामोदरं रामनारायणं
का ध्यान करते चलो।